अथ प्रमेयनवमालिका
श्रीशप्रीत्यै प्रजातः सुमहितमहिमा श्रीहनुमान्निदेशात् रामस्योल्लङ्घिताब्धिः स हरिरथगतः सेतुना पिष्टदुष्टः भूभृन्नी रावणारिं पुरगमुरुदयं पूजयित्वा ससीतं पश्यन् किं पूरुषेतं सततमपि महाप्राणमुख्योऽवतान्माम् भीमो भूद्यो न चकितरिपुकृतापत्प्रणोदी सलीलं रक्षोघ्नः प्राप्तकृष्णो मखकृदुतवने दुष्टः कीचकघ्नः हत्वा दुर्योधनादीन् स्वपदमुपगतो यद्विषः क्रोधतन्त्राः भूत्वा भूमौ कुशास्त्रं व्यधिशतमणिमत्पूर्वकाः पातु सोऽस्मान् अज्ञानोत्सादनार्थं सुरवरवचसा सूचितो रूप्यभर्त्रा जातो मध्यालयार्याद् गुरुमतितपसो वासुदेवाभिधानः गोदात्रे मोक्षदाता रजतपतिपदा सेवको भूतभर्त्रा मान्यः प्राणः कुलस्थैरपि निजसहजातर्पितः प्रियतां मे आनन्दं मन्दहासामृतरसकलया सन्दधानः प्रजानाम् आस्येन्दोशोभमानैरपि कलवचनैर्बाललीलाविलासैः गोपुच्छालम्बनाद्यैर्वृषपतिविहिता पत्प्रणोदी प्रणुद्यात् अज्ञानाद्यापदं मे स्वयमिव भगवान् वासुदेवो सुदेवः एकाकीयो जनाभ्यां व्यवहितमगमद्यस्त्रिवर्षो मरौको यो लाल्यो लोकमात्रा स्वलिपि परिचये तात विस्मेरताकृत् प्राज्ञं मन्यं शिवाख्यं परिषदि जितवान् शाखिनामर्थमूचे दुर्गं पित्रोपनीतः सुरवरमहितो मह्यतां मे वचोभिः